वन्दे पद्मकराम् प्रसन्नवदनाम् सौभाग्यदाम् भाग्यदाम् हस्ताभ्याम् अभयप्रदाम् मणिगणैर्नानाविधैर्भूषिताम् भक्ताभीष्टफलप्रदाम् हरिहर ब्रह्मादिभिस्ते विताम् पार्श्वे पङ्कजशङ्खपद्मनिधिभिः युक्ताम् सदा शक्तिभिः सरसिजनिलये सरोजहस्ते धवनतमाशुकगन्धमाल्यशोभे भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूषिकरि प्रसीद मह्यम्। ॐ प्रकृतिं विकृतिं विद्यां सर्वभूतहितप्रदां श्रद्धां विभूतिं सुरभिं नमामि परमात्मिकाम्। वाचं पद्मालयां पद्मां शुचिं स्वाहां स्वधां सुधां धन्यां हिरण्मयीं लक्ष्मीं नित्यपुष्टां विभावरीं अदितिं च दितिं दीप्तां वसुधां वसुधारिणीं नमामि कमलां कान्तां कामाक्षीं क्रोधसम्भवा अनुग्रहपरां बुद्धिम् अनघां हरिवल्लभां अशोकाम् अमृताम् दीप्ताम् लोकशोकविनाशिनी नमामि धर्मनिलया करुणां लोकमातरम् पद्मप्रियां पद्महस्तां पद्माक्षीं पद्मसुन्दरीं पद्मोद्भवां पद्ममुखीं पद्मनाभप्रियां रमां पद्ममालाधरां देवीं पद्मिनीं पद्मगन्धिनीं पुण्यगन्धां सुप्रसन्ना प्रसादाभिमुखीं प्रभा नमामि चन्द्रवदना चन्द्रां चन्द्रकलादरीं चतुर्भुजां चन्द्ररूपां इन्दिराम् इन्दुशीतलाम् आकाशजननीं पुष्टिं शिवां शिवकरीं सतीं विमलां विश्वजननीं तुष्टिं दारिद्र्यनाशिनीं प्रीतिपुष्करिणीं शान्तां शुक्लमाल्यां वरां श्रियं भास्करीं बिल्वनिलयां वरारोहां यशस्विनीं वसुन्धरां उदाराङ्गां हरिणीं हेममालिनीं धनधान्यकरीं सिद्धिं त्रैलोक्यशुभप्रदां नृपवेश्मगतानन्दां वरलक्ष्मीं वसुप्रदां शुभारां हिरण्यप्राकारां समुद्रतनयां जयां नमामि मङ्गलां देवीं विष्णुवक्षस्थलस्थितां विष्णुपत्नीं प्रसन्नाक्षीं नारायण समाश्रिताम् दारिद्र्यध्वंसिनीं देवीं सर्वोपद्रववारिणीं नवदुर्गां महाकालीं ब्रह्मविष्णुशिवात्मिकां त्रिकालज्ञानसम्पन्नां नमामि भुवनेश्वरीं लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीं समस्तदेववरितां लोकैकदीपाङ्कुरां श्रीमन्मन्दकटाक्षलब्धविभवब्रह्मेन्द्रगङ्गाधरां त्वां त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियां मातर्नमामि कमले कमलायताक्षि श्रीविष्णुहृत्कमलवासिनि विश्वमातः क्षीरोदजे कमलकोमलगर्भगौरि लक्ष्मी प्रसीद सततो नमतां शरण्य